గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సేద సాదనం ప్రణో దేవీ సరస్వతీ వాజేభిః వాజినీవతీ ధీనామ విత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాత ఇషుః శివతమా శివం బభూవతే ధనుః. శివాశరవ్యాయాతవతయానో రుద్రమృణయా. యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ. తయానస్తను వాశంతమయా గిరిశంతాభిచాకశీ. యామిషుం గిరిశంతహస్తే విభర్ష్యస్తవే. శివాంగిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్. శివేన వచసా త్వా గిరిశాచ్ఛావదామసి. యతానస్సర్వమిజ్జగదయక్ష్మగు సుమనా అసత్. అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్. అహీగుశ్చ సర్వాంజంభయన్ సర్వాశ్చ యాతు ధాన్యః. అసౌయస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః. యే చేమాగుం రుద్రా అభితో దిక్షశ్రత సహస్రశో వైశాగుం హేణీమహే. అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః. ఉదైనం గోపా అదృశన్నదృశన్నుదహార్యః. ఉదైనం విశ్వా భూతాని సదృష్టో మృడయాదినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీలుషే. అధో యే అస్య సత్వానోహం తేభ్యో కరన్నమః. ప్రముంచ ధన్వనస్త్వముభయోరాగ్నియోర్జా. యాస్య దేహస్త ఇషవః పరాతా భగవో వప. అవతత్య ధనుస్వగుం సహస్రాక్షశతేషుధే. నిషీర్య శల్యానాముఖా శివో నః సుమనా భవ. విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం హుతా. అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః. యాతే తిర్మీరుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్ విశ్వతస్వమయక్ష్మయా పరిభుజ. నమస్తే అస్త్వాయుధాయానాతదాయ ధృష్ణవే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ మృణక్తు విశ్వతః. అథో య ఇషుదిస్తవారే అస్మన్నిదేహితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే. నమో నమో వృక్షేభ్యో हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय त्विषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सामानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुम् सद्भ्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मध्यो धन्वाविभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगम् हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमः स्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधङ्गने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम शीघ्र्याय च शेभ्याय च नम ऊर्म्याय च वस्वन्याय च नम श्रोदस्याय च वीर्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम ओर्धजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जगन्याय च बुद्धियाय च नम सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नम शवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावबिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नम तीक्ष्णेशवे चायुधिने च नम स्वायुधाय च सुधन्वने च नम श्रुत्याय च पत्याय च नम काट्याय च नीप्याय च नम सोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नम कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युद्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नम शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नम शम्भवे च मयोभवे च नम शङ्कराय च मयस्कराय च नम शिवाय च शिवतराय च नमस्तीर्त्याय च कोल्याय च नम पार्याय च वार्याय च नम प्रतरणाय चोत्तरणाय च नम आर्याय च लाद्याय च नम षष्प्याय च फेन्याय च नम सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम केगुंशिलाय च क्षयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಊರ್ಣ್ಯಾಯ ಚ ಸೂರ್ಣ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಜದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾನಾಯ ಚ ಭಿಗ್ನತೇ ಚ ನಮಃ ಆಖಿರತೇ ಚ ಪ್ರಖಿರತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆ ನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯ ದ್ರಾವೇ ಅಂಧಸ್ಪದೇ ದರಿದ್ರ ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋಮೋ ಯೇಷಾಂ ಕಿಂಚನ ಮಮತ್ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಃ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತಯಾನೋ ಮೃಳ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರವರಾಮಹೇ ಮತಿಂ ಯಥಾನಶ್ರಮಚದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಳಾನೋ ರುದ್ರೋದನೋ ಮಯಸ್ಕೃತ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಚಯೋಶ್ಚ ಮನುರಾಯತೇ ಪಿತಾ ತದಶ್ಯಾಮತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತ್ರಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತ್ರಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಶುರೀರಿಷಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರಭಾವಿದೋ ವದೇ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತ್ತೇ ಗೋಗ್ನ ಉತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾಜನೋ ಅರಿಚ ದೇವ ಪ್ರೋಯದಾಜನ ಶರ್ವಯಚ್ಚತ್ರಿವರ್ಹಾ ಸುಹೃಶ್ರುತಂ ಗರ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ತು ಮುಗ್ರಂ ಮೃಳಾಜಲಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾಃ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ಮೃಳತ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿರಾಮಗವದ್ಭ್ಯಸ್ತನುಶ್ವಮೀಶ್ವಸ್ತೋಕಾಯತನಯಾಯ ಮೃಳಯ ಮೀರುಷ್ಟಮಶಿವತಮಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ರಿಂ ವಸಾನ ಆಚರ ಪಿನಾಕ ಬಿಭ್ರದಾಗಹಿ ವಿಗಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಗಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃದೇ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ಮಧನ್ವಾನಿ ತನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂದರಿಕ್ಷೆ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಜರಾಃ ನೀಲಗ್ರೀವಾಶಿಕಂಠಾ ದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಃ ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿದ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ ಯೇ ಪತಾಂ ಪತಿರಕ್ಷಯ ಐಲಭೃದಾಯ ವ್ಯುದಃ ये तीर्थानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुंसहस्रयो जने मधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये चामन्नम् पातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो द्वेषितम् भोजम् वे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् पूर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नयो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यश्वशुसुदन्वायो विश्वस्य क्षयदिवेशजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो हृदेवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगु शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तो वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजस्य मे प्रसवस्य मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरस्य मे श्लोकस्य मे श्यामस्य मे श्रुतिश्च मे ज्योतिश्च मे सुवस्य मे प्राणस्य मे अपानस्य मे व्यानस्य मे सुश्च मे चित्तम् च महाधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तदोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परुगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वचश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे सम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामस्य मे सौमनसस्य मे भद्रं च मे श्रेयस्य मे वस्यस्य मे यशस्य मे भगस्य मे द्रविणं च मे जन्ता च मे धर्ता च मे क्षेमस्य मे धृतिश्च मे विश्वं च मे महस्य मे संविच्य मे ज्ञातं च मे सोऽस्य मे प्रसोऽस्य मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्क्ष मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सभीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे शुच्य मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे ऊषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रस्य मे सारस्वतस्य मे पौष्णस्य मे पात्नीवतस्य मे आर्योजनस्य मे विद्मस्य मे बर्हिस्य मे वेदस्य मे धृष्णीयास्य मे शुचस्य मे चमसास्य मे ग्रावाणस्य मे स्वरवस्य म उपरवास्य मे धिषवणे च मे द्रोणकलशस्य मे वायव्यानि च मे पोतभृच्च म आधवनीयश्च म आग्नेर्धं च मे अविर्धानं च मे गृहाश्च मे सदस्य मे पुरोणाशाश्च मे पचताश्च मेव भृतश्च मे स्वगाकारस्य मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यस्य मे प्राणश्च मे श्वमेधस्य मे पृथिवी च मेदितिश्च मेदितिश्च मेद्योश्च मे षत्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पं तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भास्य मे वत्सास्य मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्योहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्योहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च विजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनस्य भुवनस्याधिपतिश्च इडा देवहोर्मनुर्यज्ञनेर्बृहस्पतिरुक्ता मदानि सगुंसि षद्विश्वे देवासूक्तवाच पृथिवीमा धर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाच मद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् वा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति। शान्तिः ॐ तच्छञ्जोरावृणीमहे गातिर्यज्ञाय गातिर्यज्ञपतये
दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अथोज्यायागः स पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासेदाज्यम् ग्रीष्म यद्मः शरद्दविः सप्तास्यासन् परिदयः त्रिसप्त समिदः कृताः देवा यज्ञज्ञम् तन्वाराः अवग्नम् पुरुषम् पशुम् तम् यज्ञम् वरेषि प्रोक्षन् पुरुषम् जातमग्रदः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् प्रसदाज्यम् अशोकस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वहुतः ऋचसामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कथिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यकृतः भूरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासेदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्चतस्रः त ಸಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇ ಹನಾಕಂ ಮಹಿಮಾನಃ ಸಜಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾಸ್ಕಂತಿ ದೇವಾಃ ಅದ್ಯ ಸಂಭೂತ ಪೃಥಿವ್ಯೈರಸಾ ಚ ವಿಶ್ವಕರ್ಮಣಃ ಸಮವರ್ತತಾದಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಜಾನಮಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೆ ಯನಾಯ ಪ್ರಜಾಪದಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾಃ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯಾತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ರುಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಸಂವಶೇ ಹೇಶ್ಚ ತೇ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ನ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೋ ವ್ಯಾಕ್ತಂ ಇಷ್ಟಂ ಮಣಿಷಾಣ ಅಮುಂ ಮಣಿಷಾಣ ಸರ್ವಂ ಮಣಿಷಾಣ ತಚ್ಛಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೇವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇ ಹನ್ಮೇ ಕಣ್ವೇನ ಜಮದಗ್ನಿರಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೇಣಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾವಸ್ಥಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾಃ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾಃ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾಃ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾಃ ಆಹರಾವದ್ಯ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮುಯ್ಯಮಸ್ಯ ಜಂಭಯೋ ಆಧದಾಮಿ ತಥಾಹಿ ತತ್ ಖಂಡ್ಫಂಡ್ರಸಿ ಓಂ ಶಾಂತಿ 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 ಓಂ ಸಹನಾವವತು ಸಹನೋ ಭುನಕ್ತು ಸಹ ವೀರ್ಯಂ ಕರವಾವಹೈ ತೇಜಸ್ವಿನಾವಧೀತಮಸ್ತು ಮಾ ವಿದ್ವಿಷಾವಹೈ ಓಂ ಶಾಂತಿ 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 ಭೃಗುರ್ವೈ ವಾರುಣಿ ವರುಣಂ ಪಿತರಮುಪಸಸಾರ ಅಧೀಹಿ ಭರವೋ ಬ್ರಹ್ಮೇತಿ ತಸ್ಮಾಹೇತತ್ ಪ್ರೋವಾಚ ಅನ್ನಂ ಪ್ರಾಣಂ ಚಕ್ಷುಶ್ರೋತ್ರಂ ಮನೋವಾಚಮಿತಿ ತಗುಂಭೋವಾಚ ಯಥೋ ವಾ ಇಮಾನಿ ಭೂತಾನಿ ಜಾಯಂತೆ
येन जातानि जीवन्ति यत्प्रयन्त्यभिषम् विशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति स तपोतप्यत स तपस्तत्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव कल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयन्त्यभिषम् विशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम् होवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स तपोतप्यत स तपस्तत्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव कल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणम् प्रयन्त्यभिषम् विशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्मविजिज्ञासत्व तपो ब्रह्मेति स तपोतप्यत स तपस्तत्त्वा मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनःप्रयञ्चभिषम् विशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स तपोतप्यत स तपस्तत्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानम् प्रयञ्ज विषम् विशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स तपोतप्यत स तपस्तत्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव कल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दम् प्रयञ्चभिषम् विशन्तीति सैषा भाग्रवीवारुणी विद्या परमे व्योमन् प्रतिष्ठिता य एवम् वेद प्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवच्छसेन महान् कीर्त्या अन्नम् न निन्द्यात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवच्छसेन
महान् कीर्त्या अन्नम् न परिचक्षेत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सुज्योतिप्रतिष्ठितम् ज्योतिष्यावप्रतिष्ठिताः तदेतदन्नमन्ये प्रतिष्ठितम्
वेद
एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या अन्नम् बहु कुर्वीत तद्व्रतम् पृथिवी वा अन्नम् आकाशो नादः पृथिव्यामाकाशप्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवच्छसेन महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षेत तद्व्रतम् प्रश्नाध्ययाचया च विधया बह्वन्नम् प्राप्नुयात् अराध्यस्मान्नमित्याचक्षते एतद्वै मुखतोऽन्नगुम् राद्धम् मुखतोऽस्मान्नगुम् राध्यते एतद्वै मध्यतोऽन्नगुम् राद्धम् मध्यतोऽस्मान्नगुम् राध्यते एतद्वा अन्ततोऽन्नगुम् राद्धम् अन्ततोऽस्मान्नगुम् राध्यते य एवम् वेद क्षेम इति वाचे योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषे समाज्ञाः अत दैवे तृप्तिरिति विष्टौ बलमिति विद्युते यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपत्ते सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते स्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मण परिमर इत्युपासीत पर्येणम् म्रियन्ते द्विषन्तः सपत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवं वित् अस्माल्लोकान् प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामानि कामरूप्यनुसञ्चरन् एतत् सामगायन्नास्ते हा भूहा అహమన్నాదో అహమన్నాదో అహమన్నాదః అహగ్గశ్లోకృదహగ్గశ్లోకృదహగ్గశ్లోకృత అహమస్మి ప్రథమజారితాస్య పూర్వం దేవేభ్యో అమృతస్య భారి యో మా దదాలి సై దేవమా అహమన్నమన్న మదంతమాగ్ని అహం విశ్వం భువనమభ్యభవాం సువర్ణ జ్యోతిః య ఏవం వేద ఇత్యుపనిషత్ సహనావవతు సహనో భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతిః ఓం
జాతవేదశేషు నవామసో మమరాతి యతో నిదః త్రివేదః సన పర్షదతి దుర్గాని విశ్వానావేవ సింధుం దురితాత్యగ్నిః తామగ్నివర్ణాం తపసా జ్వలంతీం వైరోచనీం కర్మఫలేషు జుష్టాం దుర్గాం దేవీగుం శరణమహం ప్రపద్యే సుతరసి తరసే నమః అగ్నే త్వం పారయానవ్యో అస్మాన్ స్వస్తి భిరతి దుర్గాని విశ్వా పోశ్చ పృథ్వీ బహులాన ఉర్వీ భవాతోకాయతనయాయ శయ్యో విశ్వానినో దుర్గః జాతవేదః సింధుం ననావా దురితాతిపర్షి అగ్నే అత్రివన్మనసా గృణానో స్వాకం బోధ్యవితాతనూనా వృతనాజితగుం సహమానముగ్రమగ్నిగుం ఉవేమ పరమాత్సదస్తాత్ సన పర్షదతి దుర్గాని విశ్వాక్షామద్దేవో అతిదురితాద్యగ్నిః ప్రదోషికమేద్యో అధ్వరేషు సనాచో దానవ్యశ్చ సస్సీ స్వాంచాగ్నే తనువం విప్రయస్వా స్వభ్యం చ సౌభగమాయజస్వ గోభిర్జుష్టమయజో నిషిక్తం తవేంద్ర విష్ణోరను సంచరేమ నాకస్య పృష్టమవి సంవసానో వైష్ణవీం లోక ఇహమాదయంతాం కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహే తన్నో దుర్గి ప్రచోదయాత్ ఈశాన సర్వ విద్యానామీశ్వర సర్వభూతానాం బ్రహ్మాధిపతి బ్రహ్మణోధిపతి బ్రహ్మా శివో మే అస్తు సదాశివో తద్విష్ణో పరమం పదగుం సదా పశ్యంతి సూరయః దివేవ చక్షురాతతం తద్విప్రాసో విపన్యవో జాగ్రవాగుం సస్సమిందతే విష్ణో యత్ పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహే తన్నో విష్ణు ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహే తన్నో రుద్ర ప్రచోదయాత్ ఓం సాయీశ్వరాయ విద్మహే సత్యదేవాయ ధీమహే తన్నః సర్వ ప్రచోదయాత్ హంసహంసాయ విద్మహే పరమహంసాయ ధీమహే తన్నో హంస ప్రచోదయాత్ राजादिराजाय प्रसह्य साहिने नमो वयम् वै श्रवणाय कुर्महे तमे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् येन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।